सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः स्त्रीप्रत्ययप्रकरणे तृतीयः पाठः, अक्टोबर् मासस्य द्वाविंशतिः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। We'll just go through what we started last week. We started with the Stri Pratyaya Prakaranam. So the Stri Pratyaya Prakaranam, the entire Prakaranam falls under the Adhikara called Striya in the first pada of the fourth chapter of Ashtadhyayi. So all sutras in this Prakarana come under the Adhikara of Striya, which means that the sutras will apply when the feminine gender is to be indicated. So we also went through the commentary, which gave a few points on what exactly, how a linga is determined in the shastra. Right. So there is a laukika way of determining lingas, which depends on the physical attributes of persons, animals, etc. Whereas in Shastra, we consider a different definition for linga. Sattva-rajas-tamo-gunana upachayaha satradhihi pumstvam iti apachayaha sthitvam iti sthitimatram apumsakatvam iti cha angikriyate shastre. Kevalam vyakarana shastre apitu sankhya shastre api anyatra. ईदृशं लिङ्गं यदस्ति तत् अस्माकं दृग्गोचरं न भवति. वि केनाट् सी दिस् लिङ्ग, केनाट् डिटर्मिन् दिस् लिङ्ग थ्रू अवर् फिसिकल् सेन्स्. केवलं योगिनां हृदयगम्यम् इति कैयतः प्रायेण प्रयोगवशात् अस्माभिः ज्ञातव्यं भवति इति एकः अंशः. लिङ्गम् अर्थनिष्ठम् इति अपरः अंशः. अर्थे अर्थस्यैव लिङ्गं भवति, शब्दे तस्य लिङ्गस्य अभेदः आरोप्यते. अर्थात् यद्यपि अकारान्तः पुल्लिङ्गः रामशब्दः इति उच्यते, तथापि सा व्यक्तिः अर्थात् राम इत्याख्या व्यक्तिः तस्यां व्यक्तौ पुंस्त्वमस्ति. पुल्लिङ्गशब्दः इति व्यवहारः तु सर्वत्र दृश्यते एव. अन्यच्च इदं लिङ्गं प्रातिपदिकार्थः, अर्थात् प्रातिपदिकस्य पञ्चकं प्रातिपदिकार्थः इति सिद्धान्तः. द अल्टिमेट् सिद्धान्त आफ् व्याकरण सेस् द प्रातिपदिक इट्सेल्फ् क्यारीस् फैव् मीनिङ्ग्स्, नाट् फैव् डिफरेण्ट् मीनिङ्ग्स्, इट् हेस् फैव् क्यारेक्टरिस्टिक्स् लैक् द सो द जाति व्यक्ति लिङ्ग वचन कारक, दट् इस् इट् इन्क्लूड्स् द मीनिङ्ग् द पर्टिक्युलर् थिङ्ग् और् व्यक्ति, इट् इन्क्लूड्स् द क्लास्, इट् इन्क्लूड्स् द जेण्डर्, इट् इन्क्लूड्स् द नम्बर् एण्ड् इट् इन्क्लूड्स् द कारक. सो एव्रिथिङ्ग् इस् विदिन् द प्रातिपदिक. सो वाट् एवर् सफिक्स् वि आर् एडिङ्ग्, लैक् वि एड् स्त्री प्रत्ययस् फोर् लिङ्ग, वि एड् द एकवचन द्विवचन बहुवचन प्रत्ययस् फोर् डिफरेण्ट् वचनास्, वि एड् डिफरेण्ट् विभक्तीस् फोर् कारक. All of them are treated as dyotak. That is, they are explicit indicators of that property. But that property or the meaning does not belong to the pratyaya itself. There are some pratyayas which carry their own meaning. Like you have, say, nul or trichin. You go to krit pratyayas. All this is pratyayas or the tadhita pratyayas. They carry their own meaning. Say, if you are saying dasharathasya patyam dasharathihi, the suffix you are adding there, which is in, it carries its own meaning, which is napadyartha. If you are saying pachati iti vachakah, the nul there, it carries its own meaning of karta, that is he who does the act. But in these cases, that is when we come to three pratyayas, the linga or the sritva is not a property of the pratyaya. It is actually a property of the prakriti or the pratiparika. The sri pratyaya will just bring out or explicitly indicate that meaning. For now, I mean, this might not seem to make a difference, but it makes a huge difference to the Siddhanta. So that is about the Sri Adhikara. The first sutra which we studied under the Adhikara was Ajadyatashta. Ajadinam akarantasya vachyam esprikum tatradyotye tapsya. So the suffix tap is added to all akarantas generally, and to words which belong to the Ajadi class in Sri-Lika. Idam Autsargikam Sutram. Arthat, Sarvesha Makarantana, Samanyataya Tapukhavati, Vidhiya. Tataha, Adantat, Karantebhyaha, Shabdebhyaha, Tapaha, Apavadatvena, Neetnesho, Vidhiya. So initially the general sutra is Ajadyatashta, and then Panini covers Neet Nish in many sutras. All of them are exceptions to talk. That is, they are also added to Akarantas. So for, if you take an Akaranta, Neep and Nish are exceptions to talk. So if Neep or Nish is not applicable, then we come back to the general sutra. And Adadigane Pathaha Neep Nishoho Apavadaha. So if a word is being told in the Ajadi, it overrules Neep and Nish. So that is how the construction is. So first, in the order of precedence, it is Ajadi Gane Pathaha, Tataha Neep Nishau, Tataha Adantat Tap. Okay. First you, we confirm whether the word is in Ajadi Gana. If it is an Ajadi Gana, it does not matter what other conditions are satisfied, it will still get Tap. If it is not in the Ajadigana, then we check if any of the Neep or Nish rules apply. If none of them apply, then we fall back to Ataha Tap, that is Akaranta Tap. So Tap is the general sutra and Neep, Nish are exceptions. Ajadigana is an exception even to that. So that was about the sutra Ajadyatashta. Just a moment. Rasenaji, are you able to navigate the slides or should I? The next slide. We also saw a few vastikas which were related to Ajadyatashta. So there are actually four vartikas. Samhastrajina Kshanapinde Bhikkala, Sadashkanda Pranta Shataike Bhikkha, Shudraja Mahatpurva Jadhi, Mulamiyaha, Chatvari Vartikani Sati. So these vartikas are again an exception to Neep or Nish as is the case. There is nothing much about that. Coming now to the next sutra, Rinnebhyo Neep. Itaha Neep Prakaranam Arabhya. Taap Vidhanikam Ekameva Sutramasti Ajadyatashtapiti Sena Saha Vartikani Sati. Neep Vidhayakani Tu Bahuni Sutrani Sati Evameva Nish Vidhayakani Api Bahuni Sutrani Bhavanti. Tata Neep Vidhayakam Prathamam Sutramasti Rinnebhyo Neep. Idam sutram purvameva adhitam kaunudyam ataha atra punaha kevalam ullikhyate vikshitehi sutra sankhyatu sti trishatottara shat. This was the 306 sutra. You can go back to this and find out that we have already studied this. But since it belongs to the prakarana, we will look at it again. Dve pade staha sutra ratu nebhyaha neep. इति परच्छेदः ऋत् अर्थात् ऋदन्ताः ऋकारान्ताः तथा नु नकारान्ताः एतेभ्यः नीप् प्रत्ययः भवति. ज्ञाप्रातिपदिकात् इत्यधिकारः अस्ति, क्रियाम् इत्यपि अधिकारः अस्ति. ऋदन्तेभ्यः नान्तेभ्यश्च क्रियां नीप् स्यात्. So for ऋकारान्त and for नकारान्तस् त्रीलिंगे नीप प्रत्ययः भवति। कर्त्री इति उदाहरणं, ऋकारान्तः पुल्लिङ्गः कर्तृ शब्दः, तस्मात् स्त्रियां ई भवति कर्तृ ई इकोयति इत्यनेन एणादेशे कृते कर्त्री इति रूपम्। दण्डिनी दण्डिन् इति नकारान्तं प्रातिपदिकं, तस्मात् ई प्रत्यये दण्डिन् ई दण्डिनी। These are examples for Arnebhyo Ni. Adhyamam sutram asti Udhitascha. Udhitaha cha iti paracchedaha. Prahatrapi adhikaradvayam Arnebhyo Ni ittataha Ni iti anuvartate. Udhidantat pratipadikat Priyam Ni syat iti Sutra. So we will go into the Bala Manorama. The Pratika Udhitascha Iti. Uk Pratyaharaha. So Uk, and you know the Pratyahara, A, I, U, Liyak. So Uk Pratyaharaha includes U, R, and Li. Three letters. Uk idu yasya kaha ugit. Yasmin ugvarnaha. Arthad ukaraha, rukaraha, lukarova, itthamyam prasanti kaha ugit. Ugitaha iti panchamyantam. Tena pratipadikat ityeta visheshyate. So we have an adhikara nya pratipadikat. So ugitaha pratipadikat. Ugitaha iti visheshanam, pratipadikat iti visheshyam. Tadanta vidhihi. So येन विधि तदन्तस्य विशेषणं तदन्तस्य संन्यास्य आदित्यनेन तदन्तविधो उगिदन्तात् प्रातिपदिकात् इति लभ्यते। तदन्तविधिः उगिद्वर्णग्रहणवर्जम् इत्युक्ते समासप्रत्ययविधो विशेषः इति प्रतिषेधो न। अगेन् टाक्स् अबौट् येन विधि तदन्तस्य हस् टु has a negation. It says samasa pratyayavidhau pratishedha. Samasa vidhau pratyayavidhau tadanta vidhi nasti iti pratishedha asti. So how are you applying tadanta vidhi here is the question. Because this is a pratyayavidhi. I am pratyayavidhi. Atra samasa pratyayavidhau pratishedha iti tadanta vidhehe pratishedha jyat iti samshayaha. Ujitvarana grahana vajjam ityuktehe. But that pratishedha has a pratishedha. It says Ugit varna grahana vartam. Wherever there is mention of ugit or there is a mention of a particular varna, tad varjam pratishetaha. So, in that case, there is no pratishetha for tadanta vidhi. Ugit grahane tadanta vidhehe pratishetaha nasti. Varna grahane api tadanta vidhehe pratishetaha nasti. Yuktarpat. Ugit varna grahana vartam yuktehe samasa pratye vidho iti pratishetaha na. So we can still have tadanta vidhi. So Dikshita has applied the tadanta vidhi to give the sutra artha as vidantat pratipadikat. Purva sutra artha neep iti anuvartate. So we are getting neep somewhere like neep. Tadaha vidantat. So he has clearly explained how we got the sutra artha. Vidantat pratipadikat priyam neep. Yeah. So उदाहरणम् अस्ति भवति इति एकं, पचन्ति इति अपरं मूले। सो विल् कण्टिन्यू वित् द व्याख्यानम्। उगित् द्विविधम्। नौ दिस् उगित् दट् इस् उक ऊर् लु बीङ्ग् इत् इस् अ टु कैण्ड्स्। प्रातिपदिकं प्रत्ययश्च। सो द प्रातिपदिक इट्सेल्फ् केन् बि उगित् आर् द प्रत्यय विच् इस् एडेड् देर् एज़् इन् विच् इस् इट् हेज़् बीन् एडेड् समवेर् केन् बि उगित्। सो उगिद् द्विविधं प्रातिपदिकं प्रत्ययश्च। तत्र प्रातिपदिकम् उदाहरति भवति इति। सर्वादिगणे भवतु इति अव्युत्पन्नं प्रातिपदिकं पठितम्। रिमेम्बर् द सर्वादिगण सर्वादीनि सर्वनामानि सर्व विश्व उभय। एट् द एण्ड् आफ् इट् यु फैण्ड् अस्मद् युष्मद् भवतु किम्। सो भवतु is an avyutpanna pratipadika, which means it cannot be split further into prakriti pratyaya. It is an underived ready form. So
सर्वादिगणे भवतु इति अव्युत्पन्नं प्रातिपदिकं पठितं तस्य व्यपदेशिवत्वेन उदिदन्त वा नी सो दट इज उगित वेर उकार इज भवतु इत्यत्र उकारः इत्सम्यकः द फॉर्म इज भवत् इन पुल्लिंगा वी हैव भवान भवन्तौ भवन्तः
एंड इन स्त्रीलिंगा वी आर नाउ एडिंग अ प्रत्यय सो सिंस इट इज भवत् सिंस इट इज उगित
वी आर एडिंग नी इट बिकम्स भवति So he raises another question here. He says, Ugidantat Pratipadika, which means a Pratipadika which ends in Ugit, you get Ni. Now, Bhavatu is not a Pratipadika ending in Ugit. It is Ugit itself. Bhavatu itself is Ugit. If you have something like Parama Bhavat as a Samasa, where Bhavatu is at the end of it, Tadanin Tasya Ugidantatvam Bhavati, I am to Swayam Ugit. कथम प्रत्ययः इति प्रश्नः सो इट्स अ वेरी वेरी बेसिक क्वेश्चन सो तथा व्यपदेशिवत्वेन उदिदन्तत्वं वी हैव अ टेक्निक कॉल्ड व्यपदेशिवद्भाव सो व्यपदेशिवद् एकस्मिन् दैट इज इवन इफ देयर इज ओनली अकार वी कंसीडर इट एज अकारांत वी हैव अ सेवरल वर्ड्स वी हैव राम कृष्ण एटसेट्रा दे आर ऑल अकारांत बिकॉज दे हैव अ एट द एंड ऑफ इट इवन इफ देयर इज ओनली अकार It has no beginning, no end. But still, we teach it as akaranta. That is the rule which says vipadeshivad ekasmin. Even when there is one thing, we can treat it as tadadi, tadanta, etc. Now, a can be treated as akaradi. It can also be treated as akaranta. So similarly, bhavatu itself, even though it is ugit itself, it can be treated as tadanta, ugidanta. So, sarmadigane bhavatu iti abhyutpannam pratipadikam pachitam. तस्य व्यपदेशिवत्वेन उदिदन्तत्वात् नीत् मपावितौ नीत् प्रत्यये नकारस्य इत्सम्या अस्ति नशक्वतथिते इति सूत्रेण अकारस्य इत्सम्या अस्ति हलन्त्यम् इति सूत्रेण अतः मपावितौ तस्य लोपः इत्यनेन उभयोः लोपः आच्छीनद्योर्नुं शक्ष्योनुष्यम् इति नुं न शत्रं तत्त्वा भावा सो देयर् इस् नो नुम् We see num in the next example, so you'll know what is that num. So there is no possibility of num here. So we have bhavati, it becomes bhavati. Ugidacham ityapina sarvanamasthanatva bhava. So there is also another sutra which gives num. Ugidacham sarvanamasthane athadoho. We have again seen this sutra frequently. So, but anyway, none of the sutras will apply here. So the form is plain bhavati. So bhavati is an example where ugit is a pratipadika. The pratipadika itself has some uk letter, one of the uk letters as it. So he started with ugit dvividham pratipadikam pratyayascha tatra pratipadikam udaharati bhavati iti. So the next example is pachanti. So atha dvitiyam udaharati pachanti iti. So pachanti is an example for the second. That is where the pratyaya is ugit. शप्यो नित्यम् इति नुम् इति मूले एव अस्ति अगेन् गो बेक् टु द व्याख्यान पचन्ति इति पचेः लटः शतरि शपि पररूपे पचत् शब्दः यु शुड् ऐ मीन् बै नौ यु शुड् हाव् लर्न् टु फालो दिस् प्रक्रिया अस् गिवन् इन् द व्याख्यान हि वोन्ट् गिव् द प्रक्रिया लैन् बै लैन् अस् वि आर् यूस्ड् टु हि जस्ट् गिव् इट् मोस्ट् cases in one word, so you should be able to correlate it with the prakriya as we know. So what does he say? Pachehe. Pachehe nama pachidhatoho. So pachashpake iti dhatoho. Lataha. So we first do lat. As in vartamane lat. Lataha shatari. The lat is replaced by shatr prakriya. Latashyatishanato prathama samanadhikarane iti sutra. So it is replaced by shatr. So we have lat, shatr. In shatr what is left is Atu. So, you have latu, pachu atu, shapi, we add kattari shap, so pachu a atu, and then ato gune iti pararupe, pachat iti pratipadikam, pakarantam, shatrantam pratipadikam. So, pachehe latas shatari shapi pararupe pachat shatraha, tatra shatru pratyayaha ugit. Shatru is ugit, because the rukara there, in shatru, The initial sh is removed by lashakva tadhyate. The ending rukara is also it by upadeshaya dhunanastha it. So we remove it. So since rukara is it, the suffix kshatri is ugit.
Okay.
So tatra kshatri pratyaha ugit tadantam pachat. So this pachat is ugidanta. Kshatri pratyaha ugit and the pratipadika becomes ugidanta. Tadantam pachat iti pratipadikam iti tasmad niti. So by ugitashta we add ni. There is pachat e. Idani shapshyano nityam inum. We saw the sutra again in Strilinga, Halanta Strilinga. Shapshyano nityam. So if there is shapashyan and there is a shatru anga, adantanga paraha, yaha shatuhu avayavaha, taranta priyam or niti nadyo athat, niti num havat. So there is a compulsory num. When there is shap and there is shatru, there is a compulsory numagama, so it becomes pachanti. You have pachat e, antyagatah paraha numagamaha, pachanti. You have also anuswara parasavarna, so the form is pachanti. Okay. So, where is it? Tatra shatru pratyaha ugit tadantam pachat iti pratipadikam iti tasman iti shapshano nityam iti tu num iti bhavaha. Yadi tu sarvadigane patitam bhavatu ityetat bhater davatuhu iti vipadyate tada ugit pratyantasevu udaharanam bho. So he says there are two pakshas always when we looking at the bhavatu, which we already treated as an avyutpanna pratipadika. So if you consider it as avyutpanna, then it is ugit pratipadika. But he says it is also sometimes, some people accept its derivation from the bhadhatu using davatu pratyaya. So if it is treated as a derived form, tatra api davatu iti pratyaya ugit karaha itsam. So then it is also to be treated as an example for pratyaya. So that is not a minor point. So I think that is it. We'll stop with the vyakhyana here. We have two examples for ugit. One is bhavati and the other is pachanti. Shakshanoha iti nu. Ugidacham iti sutre ajgrahanina. Coming back to the mula, he says, ugidacham iti sutre ajgrahanena dhatoshcheta ugitkaryam tarhi anchatereva iti niyamyate tena ihana khastrati. Ugidacham sarvanamasthane adhatohu iti sutramasti. Sarvanamasthane pare ugit bhavati tasya anchadhatoshcha numagamah bhavati iti sutrasya. Now, the anchadhatu as anchu gatipujanayohu iti dhatu. Tatra ukaraha itsamyaka. The ukara is it in anchu. So it is by itself ugit. So when you say ugitaha sarvanamasthane kim bhavati? Numagamaha bhavati. So it naturally means anchu dhatorapi bhavati. So when anchu itself is ugit, whatever karya is told for ugit will also apply for anchu by default. So why should he mention achu there as a question? Ugidacham iti sutre ajgrahanena. Athat achu dhatoho grahanena. Dhatoshcher ugit karyam tarhi anchate reva iti niyamyate. So that is pramana for deriving the rule. The rule says dhatoshcher ugit karyam. If we are applying the ugit karya for a dhatu, that is, there are many dhatus in which uk varnas are used. But if any karya which is meant for an ugit is to be applied to a dhatu, tarhi anchate reva, it can be applied only to anchu dhatu and not to other dhatus. So wherever a sutra like say ugitashcha mentions ugit, you can apply this rule only to anchu dhatu. You cannot apply this to other dhatus which also might be ugit. Ugidacham iti sutre atigrahanena. Dhatoshcheta ugit karyam tarhi anchate reva iti niyamyate tena ihana ukhasratu. Because of that, he gives two examples, ukhasratu and paranadbhatu. In these two, there is no yeep. So, ukhasratu, krip, aniditam halopadhayaskiniti, itinaloka. Ukhasratu is derived from sramsu dhatu. So, the Vyakhyana gives the derivation. Ukheti, he starts with ukhasratu. Pratipadika is the pratika, he takes with ukheti. Ukha kundi. Ukha is a pot, okay, a small pot. Ukha kundi. Ukhayaha sramsate. Iti vigraha. Sramsa is to. It is not to fall, it is to hang from the pot or to drop down from the pot. Evam paranat dhvamsate. Again, to drop from a leaf. That is, if you have, say, water dropping from a leaf or some other liquid, it is called dhvamsu. Vitharam salukhakundam ityamaraha. Sramsu dhvamsu avasramsane. Dhatu. There are two dhatus. One is sramsu and the other is dhvamsu. In both these cases, the ukara is it by upadeshayadhanunaska. So, both of these are ugit. Supi iti anuvuttu, fifcha iti kvipu. They have kvip prasaya. So, you have ukha, sramsu, kvip, where you have akara. So, the sram, the anunasika, aniditam hala upadhaya kineti iti nalopa. So, you do upapada samasaha, subluk, aniditam iti nalopaha. The nakara is deleted. So, we have ukha, sarasu, v. Vera pratyasya ityanena, kvipaha lopaha. So, you have ukha, sarasu. You have supratyaya. Halgnyadina sor lopaha. So, halgnyabhyo dhidhatu dhisya pratram hal ityanena supratyasya lopaha. You have ukhasras. Vasusramsudhram svanaduham daha. This is sutra. All these are sutras which we have studied earlier. So, vasusramsudhram svanaduham daha. Padante etesham dakaraha adeshaha bhavati. Ataha ukhasradu tirupam. So, svichatve ukhasradu. So he gives the pratipadika, prakriya very concisely. So finally you have formed like ukhasrat. The point he makes is there is no neep. Even though the dhatu sramsu was ugit, there is no neep here. Why is there no neep? Because ugit karya will not apply to dhatus other than anchidhatu. It will apply only to anchidhatu. Vidatam iti sutre adhidrahanena. Dhatoshcher ugit karyam sarhi anchate reva iti niyamyate tena ihana ukhasrat vip aniditam halopadhaya keyati iti na lopaha evam eva paranadhvat. Paranadhvat is very similar. You have dhvams anunasika lope dhvat iti bhavati dhatve dhvad chatve dhvat paranadhvat anchate estu kya deva. But if it is anchidhatu, then we still have neep. Neep bhavati. Prachi pratichi iti udaharanam. So prachi iti vyakhyaya. Pra purvata anchate hai. You have pra upasarga and anchidhatu. Ritvig ityaduna kvin. Aniditam iti alopaha. Ugitvat neep. Ataha iti akara lopaha. Chau iti dikhaha. Here. So, pra upasargat anchu gati pujanayohu dhatu. The next slide I have the prakriya. So, as I said, I will not show the prakriya for all. Just occasionally to facilitate the transition. I used to give all prakriya on my slides. But from now on, you have to learn to understand the prakriya by the vyakhyana. He gives it very clearly. So, what does he say? Prapurvad anchate hai. You have the pra upasarga for the anchu gati pujanayohu dhatu. Ritvig ityadima kvin. Ritvig gadrik srad dig ushnig anchu yudhi kundinsa ancha anchu ityasthi. Tena kim bhavati? Kvin pratyaha bhavati. Pra anchu kvin. Aniditam halaupadhaya kindi ityanena nalopaha. Aniditam iti nalopaha. So the nakara of anchu is removed by aniditam halaupadhaya kindi. Pra, achu, मेरपत्रस्य इत्यनेन वकारस्य लोपः सुविह प्र अच् नौ उगितश्च उगित्वा ई सिन् अञ्चु इस् उगित् उगितश्च इत्यनेन ई प्रत्ययः भवति प्र अच् ई अस्ति अचः इति अकारलोपः भसंज्ञा हियर् बै यचिभम् एण्ड् बिकास् आफ् द भसंज्ञा अचः इत्यनेन अकारः लुप्यते अकारस्य लोपे प्र च इ अस्ति चौ इति दीर्घः अकारस्य लोपे कृते पूर्वस्य दीर्घः भवति इत्यनेन पूर्वस्य दीर्घे प्राची इति रूपं सुप्रत्ययः भवति सुप्रत्ययस्य लोपः प्रथमैकवचने प्राची इति रूपम् एवं प्रतीचि सिमिलर्लि वीडियो प्रतीचि अण्डर् उदितश्च यु हव् त्री कैण्ड्स् आफ़् एक्साम्पल् वन् इस् वेर् द प्रातिपदिका इस् उगित् विच् इस् भवति प्रत्यय इस् उगित् विच् इस् पचन्ति वेर् धातु इस् उगित् विच् इस् प्राची आर् प्रतीचि सो इट् विल् नाट् अप्लै टु अदर् धातुस् वेर् द धातु मैट् बि उगित् लैक् उखास्रत् आर् पर्णम् Any questions? So the next sutra is Vanoracha. Vanaha ra cha iti trini padani santi. Nyapratipadika ityadhikaraha priyam ityadhikaraha sridnebhyo neep ityadhaha neep ityadhavartate. So vannantat tadantatsa pratipadika priyam neep ya. Rashta antanish. The sutra, first it gives neep, ra cha iti uchyate, raha cha antadesha. So pratipadika will get repha as the antadesha for itself. Van iti manip, kvanip, vanipam, hamanip grahana. These are three krit pratyaya. There is manip, where nakara, kavarga panchamaksharaha iti bhavati, evam kvanip, kavargasya prathamaksharaha, kakaraha iti samyam. वनिप् इत्येव त्रीणि त्रयः प्रत्ययाः सन्ति त्रयोः अपि वन् इत्यनेन ग्रहणं सो द वन् इन् द सूत्र रेफर्स् टु त्री प्रत्यय विच् इस् मनिप् क्वनिप् एण्ड् वनिप् वन् इति मनिप् क्वनिप् वनिपां सामान्य ग्रहणम् नौ इफ् यु लुक् एट् द सूत्रार्थ इट् इस् वन्नन्तात् तदन्तात् च प्रातिपदिकात् सो देयर् आर् टु तदन्तास् हियर् प्रत्ययग्रहणे यस्मात् सविहितस्तदादेः तदन्तस्य ग्रहणम् इति परिभाषा अस्ति प्रत्ययग्रहणे वेरेवर् अ प्रत्यय इस् स्पेसिफैड् तदन्तस्य ग्रहणं प्रत्ययग्रहणे तदन्तविधिः इस् वाट् वि काल् देयर् आर् टु तदन्तविधीस् विच् अप्लै इन् व्याकरण वन् इस् प्रत्ययग्रहणे तदन्तविधिः अन्यत्तु विशेषणस्य तदन्तविधिः इफ् देर् इस् प्रत्यय वि आल्वेस् कन्सिडर् तदन्त हल्याभ्यो दीर्घास्तुतिस्य प्रत्यम् हल् सो वि से हलन्ता ण्यन्तात् आबन्तात् प्रातिपदिकात् सो द ण्यन्त वेरेवर् हि सेज् नी वि कन्सिडर् ण्यन्त वेरेवर् हि सेज् आप् वि कन्सिडर् आबन्त बिकास् नी इस् अ प्रत्यय नी पीष् नी न प्रत्यय आप् डाप् डाप् सर् प्रत्यय सो वेरेवर् देर् इस् अ प्रत्यय वि आल्वेस् टेक् तदन्त सेज् अधिकार ज्ञाप् प्रातिपदिकात् इदे ण्यन्तात् आबन्तात् प्रातिपदिकात् च परे सो ण्यन्त इस् बिकास् आफ् दिस् वेरेवर् हि मेन्शन् द प्रत्यय वेरेवर् पाणिनि मेन्शन् द प्रत्यय वि कन्सिडर् तदन्त बिकास् आफ् दिस् परिभाषा प्रत्ययग्रहणे यस्मात् विहितस् तदादे तदन्तस्य ग्रहणम् द परिभाषा विच् सेस् इफ् देर् इस् अ प्रत्यय वि टेक् तदन्त सो सिन्स् वन् इस् अ प्रत्यय वनिप् 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 सर्वेऽपि प्रत्ययाः अतः वन्नन्तात् इति लभ्यते एकं तदन्तग्रहणं लब्धम् तेन प्रातिपदिकविशेषणात् तदन्तान्तमपि लभ्यते नौ दिस् वन्नन्त इस् अ विशेषण
तु प्रातिपदिका प्रातिपदिकात् इति अधिकारः अस्ति प्रातिपदिकात् इत्यस्य वन्नन्त इति विशेषणम् विशेषणं विशेष्यस्य तदन्तस्य संज्ञास्य स्वस्य च रूपस्य अस्ति सो येन विद्यते तदन्तस्य इत्यनेन द्वितीयं तदन्तग्रहणं सो वि गेट् वन्नन्तात् तदन्तात् च प्रातिपदिकात् वि टेक् बोत् दट् इस् अ वर्ड् विच् इस् एण्डिङ्ग् इन् वन् इट्सेल्फ् एण्ड् तदन्त सो फोर् बोत् आफ् दीस् वन्नन्तात् तदन्ताश्च प्रातिपदिका क्रियां नीत्या प्रत्ययग्रहणपरिभाषया एकं तदन्तग्रहणं तदन्तविधिना अपरं तदन्तग्रहणम् सो दट् इस् वै हि गिव्स् द एक्साम्पल्स् एक्साम्पल्स् आफ़् दीक्षित आर् वेरि वेल् थाट् औट् गिव्स् द एक्साम्पल् आफ़् सुत्वानम् अतिक्रान्ता अतिसुत्वरी अतिसुत्वरी इस् द एक्साम्पल् सुत्वानम् अतिक्रान्ता लुक् एट् सुत्वानम् इति प्रतीक इन् द commentary shuni abhishave iti dhatu su dhatu suyajor manip itanena manip pratyaya so this is the first of the three pratyayas which we saw there manip kari manipam samanya grahana so sutvan is an example of manip so you add su and one in all three pratyayas what is left is only one so su one सत्त्वस्य प्रतिकृति तत्तु इत्यनेन सुगागमः सुः सुत्वन् सो सुत्वन् शब्दः सुत्वानम् अतिक्रान्ता इति विग्रहे अत्यादयक्रान्ताद्यर्थे द्वितीयया इति समासः सुः अतिसुत्वन् ई अतिसुत्वन् इत्यस्मात् ई प्रत्ययः भवति सो हि गिव्स् दिस् एज़् एन् एक्साम्पल् फार् तदन्त बिकास् हियर् सुत्वन् इस् वन्नन्त Atisutvan is Vannantanta. It is a word which is ending in Vannanta. So for, even for plain Sutvan, we get Neep. Even for Tadanta, we get Neep. So this is an example for it. So Atisutvan ityasmata Neep Prasayaha. Racha, Vanaha, Racha, Neepuhavati, Rascha Antaresha. So the Nakara Sutvan is replaced by Repha. So you get Atisutvari, Atisutvari, iti rupam. Evam Atidhivari, Dhivanam Atikranta. So Atidhivari, iti pratikaha. Dubhai dharana poshanayohu. You have dha, dhatu. Ato manin panip vanipascha ittenena kvanip pratyaha. So this is an example for kvanip. अन्येभ्यो अपि दृश्यते इति भाषायामपि क्वनिप् घुमास्था लाभा जहाति सां हलि इत्यनेन ईत्वं सो दधा विकं धी धीवन् इति प्रातिपदिकं सो इट् विकं धीवन् ई अतिधीवन् ई इति स्थिते नकारस्य रेखादेशे अतिधीवरी इति रूपं भाष्ये तु ध्यायते क्वनिपि सम्प्रसारणे अलः इति दीर्घः So the Bhashyakara derives that Jivan in a different way. Either way, the word is Jivan, it is Kvanip. So, Vanoratha ityanena Neep Bhavati, Repashta Antadeshaha, Ati Jivari, iti Rupam. Evam Sharvari. So, Sharvari is an example of Vanip Pratyayanta. So, Sharvari iti. Shri Himsayam iti Dhatuhu. Ato Manin Kvanip Vanipashcha. अन्येभ्योऽपि दृश्यते इति भाषायामपि वनिप् सो दिस् इस् प्लेन् वनिप् प्रत्ययः शृ वन् सामधातुक अर्धधातुकयोः इति गुणः सो इट् गेट्स् गुण गुण फोर् ऋ बै उरण्ड्रपरः इट् इस् फालोड् बै अर् सो इट् बिकम् शर्वन् वनोरच इति नीप् रश्च सो शर्वन् ई अकारस्य रेफादेशे रेफादेशे शर्वरी इति रूपम् सो वन्नन्तस्य उदाहरणम् एतत् अतिशर्वरी इति पाठे तु इदमपि वन्नन्तान्तस्य उदाहरणम् सो ईचिदर् हेस् एक्चुलि गिवन् टु एक्साम्पल्स् फार् वन्नन्तान्त अतिसुत्वरी अण्ड् अतिधीवरी हि शोस् हौ द वन् अण्ड् रेफादेश अप्लै ईवन् अट् द एण्ड् आफ् द समास अण्ड् हि आल्सो गिव्स् द प्लेन् वन्नन्त अण्ड् शर्वरि सो इन् बोत् केसस् इट् विल् अप्लै सो वेदर् इट् इस् प्लेन् सुत्वरी धीवरी शर्वरी आर् अतिसुत्वरी अतिजीवरी अतिशर्वरी द रूल् विल् प्ले
अग्रे एकं वास्तिकमस्ति वनो न हशः इति वक्तव्यम्। वास्तिकस्य अर्थः अपि मूले एव दत्तः। हशन्तात् धातोः विहितः यः वन् तदन्तात् तदन्ताच्च प्रातिपदिकात् नीव् रश्च न। सो इफ् देर् इस् अ वन् वनिप् क्वनिप् और् वनिप् द प्रत्यय विच् आर् बीङ्ग् एडेड् टु द धातु विच् एण्ड् इन् हश्। हश् इस् अ प्रत्याहार हैवरट् नण् नमगणनम् सभै घटधश् जपगडदश्। So, hash is actually a pratyahara for rudu vyanjanas. So, if there is a dhatu ending in rudu vyanjana and you add the one pratyaya to it, so for in such a case, vanoratha will not apply. Ni pariparisha will not apply. Ondru apanayane vanip vidvanohu iti atvam avava brahmani iti udaharanam dattam. We look at the avaveti. Own ityasmat vanihi. The dhatu is onr apanayane. Dharkara is it by upadeshayajanaasika. So if I may repeat, own, where nakara is hash. Right? Nakara belongs to hash. So this is a hashanta dhatu. Own ityasmat vanihi. So you have o, own, ओण वन ओके वनि प्रत्यय ओण वन इत्युक्ते विद्वनोः अनुनासिकस्य आत् विद्वनोः परयोः अनुनासिकस्य द अनुनासिक अर्थस्य अकार गेट्स आत् इज रिप्लेस्ड बाय आ। सो यू हैव ओ आ वन ओण इत्यस्मात् वनिति विद्वनोर अनुनासिकस्य आत् इति नकारस्य आत्वे ओकारस्य अमादेशे। सो यू हैव ओ आ इट बिकम्स अवावा ಸ್ತ್ರೀಲಿಂಗ स्त्री प्लस स्फोरणाय ब्राह्मणी इति विशेष्यम्। सो अमावा ब्राह्मणी इति उच्यते। सो अत्र ओण इति धातोः हशन्ताद् वन् विहितः। सिंस द धातु इज हशन्त एंड द वन हैज बीन एडेड टू इट तदन्ता न नी प्रत्वे। सो नी और रेफादेश विल नॉट अप्लाई हियर। राजवद् रूपम् सो द फॉर्म विल बी लाइक दैट ऑफ राजन शब्द अवावा अवावानौ अवावानः राजा राजानौ राजानः इतिवत् रूपाणि भवन्ति। अमावा ब्राह्मणी एवमेव राजयुत्वा राजयुद्धेति राजानं योधितवती इत्यर्थः। भूते कर्मणि क्विप् इति अनुवर्तमाने राजनि युधिक्रियः इति क्वनिप् सुदृशे क्वनिप् प्रत्ययः राजनीयुधिक्रियः इति सूत्रेण वन् इति भवति। राजयुध् वन् करणीभूते राजनि उपपदे युधेः क्रियश्च क्वनिप् इति तदर्थः। सो हि गिव्स् द मीनिङ्ग् आफ् द सूत्र। सो यु जस्ट् हाव् राजयुध् वन् राजयुद्धवन् इति नकारान्तं प्रातिपदिकम्। सो अगेन् देर् इस् अ हश् युध् धकार इस् हश्। So, you add one to it and there is no need for reparation. So, Raja Yudhva, Raja Yudhvanu, Raja Yudhva. Iti Rupam. There is also one more Vartika here. Bahuvrihau Va. Bahuvrihi Samasa, Neep Rashtra Vikalpyate. If it is a Bahuvrihi Samasa, then the Neep or reparation is to be done optionally. इदं वाक्तिकं वनोरच इति विधिः बहुव्रीहौ वा स्यात् इत्यर्थः। सो यु केन् सी इफ् यु कम् टु दिस् अण्ड् सी आल् द प्रीवियस् एक्साम्पल् यु केन् सी दट् दीक्षितर् हस् नाट् गिवन् अ बहुव्रीहितमासः। उदाहरणं सुत्वानम् अतिक्रान्त अतिसुत्वरी अतिधीवरी देर् आल् तत्पुरुषसमासः। So in Bahuvrihi Samasa, Vanvaraja is optional. Bahudhivari, Bahudhiva. So Bahavaha, Jivanaha, Yasyaha, Iti Vigraha. It is a Bahuvrihi Samasa. Bahavaha, Jivanaha, Yasyaha, Iti Vigrahe. You have Bahudhivan, the word. If you know Neep and Rephadesha, you get Bahudhivari. Eratana Bhavati, Tada, Akarantam, Pratipadikam, Bahudhivan, Iti, Bahudhiva, Bahudhivano, Bahudhivanaha, Iti, Rupam. Akshe, Da, Akshyate. So further you will see that in this case, there is also an option at Da, Pratyaya. So if it gets Da, it becomes Akaranta. Then also, Prathamaikavasane, Bahudhiva, Iti, Kintu Bahudhiva, Bahudhive, Bahudhivaha, Rama, Rame, Ramaha, Iti, Ekam Rupam. Raja Rajanam Rajanaha iti ekam rupam. Kartri Kartyo Kartyaha iti ekam rupam. So there are three forms which result here. So in Bahuvrihi, Vanoracha is optional by the Vaktika. So that is about Vanoracha. Any questions? Pratipadikena prevents Vantavithi and we say in Sri Pratyaya Prakarana. It means that you have understood the logic. So the question is, why does he say Tadanta? Why do we need to Tadantavithi here? When we already have Tadantavithi here. So there is also something over there which is Anupasarjana. The Tadantavithi in Sri Pratyaya Prakarana is Anupasarjana. It will not apply in case of if it is an Upasarjana. So always that is in, if it is Gauna or Apradhana, it will not apply. But in this case, it is required to be applied. That is why he gives the example. He did not give an example where Sutvan is Pradhana. It will apply even if it is Paramasutvari or Paramadhivari. He given us an example of Pratisutvari where it is Upasarjana. Sutvan and Dhivan are not Pradhana here. It is an Upasarjana. So even when it is an Upasarjana, it will apply for Tadanta. So we require two Tadantas here. Because the Vidhi has to apply whether the word that is the Vannanta is Pradhana or Gauna. So that is why we need the two Tadantavithi, so we get one from Pratyaya Grahana and the other from plain Tadantavithi. To overrule that Anupasarjana. Even if it is Anupasarjana, it will apply. So we know that when we study Anupasarjana, it is a very important adhikara which again goes through the three Pratyaya. We are just saying about Neep. So he says Rephadesha is also an Ivikalpa. So actually this Vartika is being negated in the Bhashya. The Bhashyakara says the Vartika is not needed. It's Dantasyakhyana. But since the Vartika is there, Vikshitar includes it under Vanoracha. Because the Vartika has been told under Vanoracha. So he just includes it here. But the Vartika has anyway, it is not required. Bhashyakara says later on. So moving on, I can do this just one thing, it's very easy, there is nothing much. Pada anya tarasyam. Padaha anya tarasyam. Padadvayam. ज्ञाप्रातिपदिकार्थः क्रियामित्यधिकारः नीत् इति अनुवर्तते. पाच् शब्दः कृतसमासान्तः. सो देर् इस् अ समासान्त वेर् अट् द एण्ड् आफ् अ समास फार् पाद द अकार इस् डिलीटेड् सो इट् बिकम्स् पात्. सो पात् शब्दः कृतसमासान्तः. तदन्तात् प्रातिपदिकात् नीत् वा स्यात् विकल्पेन नीत् प्रत्ययः भवति. द्विपदी द्विपाद् इति उदाहरणं लुप्ते द्विपदी इति द्वौ पादौ यस्याः इति बहुव्रीहिः. संख्यासु पूर्वस्य इति पादशब्दान्तस्य अकारस्य लोपः. सो वेन् पाद इस् प्रिसीडेड् बै संख्या आर् सु द फैनल् अ इस् डिलीटेड् अट् द एण्ड् आफ् अ समास. इट् इस् अ समासान्त लोप. सो पात् यु आर् एण्ड् अप् वित् पात् द्वौ पादौ यस्याः स. यु हेव् द्विपाद द अकार इस् डिलीटेड् सो इट् बिकम् द्विपाद. नौ इडु ई पादोन्नतरस्याम् इत्यनेन ईप् भवति. द्विपाद् ई इत्युक्ते द्वौ पादौ यस्याः इति बहुव्रीहिः. संख्यासुपूर्वस्य इति पादशब्दान्तस्य अकारस्य लोपः. नीति भत्वात् भसंज्ञा भवति ई प्रत्यये परे यचिभम् इत्यनेन. नीति भत्वात् पादः पत् पाद् इत्यस्य पत् इति आदेशः. सो इत्युक्तं द्विपद् ई द्विपदी इति रूपम् ई प्रत्यये. तदभावे द्विपाद. सो सिन्स् नीवभावे तु द्विपादि. सिन्स् इट् सेज् नीप् वाक्य नीवभावे पदादेशोऽपि न भवति. पाद पाद् इस् नाट् रिप्लेस्ड् बै पद्. पादः पत् इस् आल्सो नाट् अप्लै. सो इट् रिमेन्स् अस् द्विपाद् द्विपदी द्विपाद् इति रूपद्वयम्. ताभृचि इति अग्रिमं सूत्रम्. ताभृचि इति पदद्वयं पादोन्नतरस्याम् इत्यतः पादः इति अनुवर्तते. ऋचिवाच्यायां पादन्ता टाप् स्यात्. देन् द वर्ड् रेफर्स् टु ऋक्. ऋक् इस् अ मन्त्र आफ् द ऋग्वेद. सो ऋचिवाच्यायां वेन् इट् इस् रेफरिङ्ग् टु अ ऋक् पादन्ता टाप् भवति. इन्स्टेड् आफ् नी इट् इस् ए टाप् टाप् ऋचि. ऋचिवाच्यायां पादन्ता टाप् स्यात् द्विपदा ऋक्. अगेन् इट् इस् द्वौ पादौ यस्य स. सो इट् बिकम्स् द्विपाद् एण्ड् यु आड् सा. सो द्विपाद् आ पादपद् इत्यनेन पदादेशे द्विपदा. एकपदा एकः पादः यस्य स एकपदा ऋक्. सो इफ् इट् रेफर्स् टु ऋक् इट् इस् द्विपदा. इट् रेफर्स् टु संथिङ्ग् एल्स् देन् इट् इस् इदर् द्विपदी आर् द्विपा. सो एकस्पादः यस्याः इति विग्रहः. उभयत्रापि टापि. सो वेदर् इन् द्विपदा आर् एकपदा इदु टाप् पादः पत् इति पदादेशः. सो इट् बिकम् द्विपदा आर् एकपदा. So we can see, give something from the Bhashya. The Vakhyana will always give some extra points. So what does he say? Nyaprathiparikat iti sutra bhashyetu. So in the Bhashya for the sutra Nyaprathiparikat, Padashabda samanarthakam padashabdam avashtabdha pratyakhyatam etat. The Bhashyakara says this rule is not related. Tabrichi, the rule itself has been removed or seen. Disagrees with the rule. He says the rule is not needed. Why? You can derive dvipada or ekapada by using the word pada. Akarantaha pada shabdaha. Vaat shabda samanarthakam pada shabdam avashtabdha. There is also an akaranta called pada. So tasmata ajadyakashtav ite nena taap taptam shakyate. Tena dvipada ekapada iti rukum siddhati. Tena. पादशब्दसमानार्थकं पदशब्दम् अवष्टभ्य प्रत्याख्यातम् एतत्. सो दिस् रूल् हेस् बी रिमूव्ड् बै द भाष्यकार. न च ऋषिवाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्तये एतत् सूत्रम् इति वाच्यम्. सो दे कुड् बि एन् आर्ग्युमेण्ट् सेयिङ्ग् दट् इस् फैन् यु केन् डिरैव् द्विपद आर् एकपद बट् ऋषिवाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्तये. 2-2 saying that when it refers to Rukh, it cannot be Vipari or Vipar. It can be only Ta. So Tavruti is treated as an exception to Padavnyatarasya. So in case of Ruchu, it should be only Ta. If it is anything else, it should be only Neep or otherwise. Etadartham. Rata Ruchi Vachyam Vipari Vipar iti Prayoga Vyavrataye Etad Sutram iti Vachyam iti Na Vachyam. So, don't argue that way. So, that is the Pura Paksha. The Pura Paksha says, because of Tavruchi, Rishivachyayam, Taveva Bhavati, Neepva, Ashiyuktamva na Bhavati, Anyatratu, Neep, Tadabhavashtra, iti, Navachyam, Etad Bhashya Pramanyena. Because of the Bhashya itself, since the Bhashyakara removes this sutra, Tathavidha Prayogasya, api Ishtatva. So, when Ruk is intended, Rishivachyayam, Vipada iti prayogaha api bhavati, Vipadi vipad iti trayam api bhavati. So, he says, if it is Ruk, all three prayogas are accepted, Vipada, Vipadi or Vipad. If it is not Ruk, then it is Vipadi or Vipad. So, basically, the Bhashyakara says there is no difference whether it is Ruk or not. You can have Taap when you use Pada Shabda. Or if you use Pada Shabda, you can have Vipari or Vipar. That is what the Bhashyakara finally says. That is, he removes this distinction between Ruk and not being Ruk. Etad Bhashya Pramanyena Tathavidha Prayogasyapi Ishtatvat. So according to Panini, if it is Ruk, it has to be Ta. But the Bhashyakara has removed that distinction. Yathottaram Muninam Pramanyam. Treating Pramanya, Vararuchi always overrules Panini, and Patanjali overrules both Panini and Vararuchi. That is the precedence in Vyakarana. Yathottaram, Uttaroptaram Muninam Pramanyam. So what Patanjali says will always carry more weight than Panini or Vararuchi. So Bhashya Pramanyena Idam Sutram Nasti. The next sutra, Nashaksasra Nishaha, is again a repetition from previous that is, we have already studied the sutra. So we will again look at it in the next class, which is tomorrow.